राम सख क्वापि दिने कामद भगवन् गतो भवान् विपिनं सूनुभिरपि गोपानां धेनुभिः अभिसंवृतो लसद्वेषः संदर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलां काण्डीरैः सह बालैः भाण्डीरकम् आगमो वटं क्रीडन् तावत्तावकनिधनस्पृहयाळुः गोपमूर्तिः अदयाळुः दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धम् आरब्धाः गोपान् विभज्य तन्वन् सङ्घं बलभद्रकं भवत्कमपि त्वद्बलभीतं दैत्यं त्वद्बलगतम् अन्वमन्यथा भगवन् कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरं श्रीदामानम् अधत्थाः पराजितो भक्तदासतां प्रथयन् एवं बहुषु विभूमन् बालेषु महत्सु बाह्यमानेषु रामविजितः प्रलम्बो जहारतं दूरतो भवद्भीत्या त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे दैत्यः स्वरूपमागात् यद्रूपात् स हि बलोऽपि चकितोऽभूत् उच्चतया दैत्यतनोः त्वन्मुखमालोक्य दूरतो रामः विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनं हत्वा दानववीरं प्राप्तं बलम् आलिलिङ्गितप्रेम्णा तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिः अमरगणैः आलम्बो भुवनानां प्रालम्बं निधनमेवम् आरचयन् कालं विहाय सद्यः लोलम्बरुचे हरे हरेः क्लेशान् कालं विहाय सद्यः लोलम्बरुचे हरे हरेः क्लेशान् ॐ तत्सदिति श्रीमन्नारायणीये सप्तपञ्चाशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।